एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। अद्य एकसप्ततितमः राष्ट्रिय प्रजातन्त्र दिवसः आराष्टम् विविधैः कार्यक्रमैः सह समायोज्यमानो वर्तते। प्रजातन्त्र दिवसम् समायोजयितुम् प्रधानमन्त्रिणः केपी शर्मा ओलिनः अध्यक्षतायाम् मूल समारोह समितिः संघटिता अस्ति। अस्य दिवसस्य अवसरे संस्कृति पर्यटन नागरिकोड्डयन मन्त्रालयस्य नेपाल प्रज्ञा प्रतिष्ठानस्य च संयुक्ता योजनायाम् अद्य राष्ट्रिय कविता निबन्ध प्रतियोगिता सांस्कृतिक कार्यक्रमश्च भवतः। उपलक्ष्यस्मिन् सन्देशं ददत्या राष्ट्रपतिना विद्यादेवी भण्डारिणा राज्यशक्तेः स्रोतः केवलं जनता अस्ति, राष्ट्रस्य सार्वभौमसत्ता च जनतायां सन्निहिता वर्तते इति मान्यता जनतायाः संघर्षेण वीर वीराङ्गनानां हुतात्मनां बलिदानेन च संस्थापितेति हेतोः। दिवसोऽयं नेपालस्य इतिहासे गौरवपूर्णः अविस्मरणीयश्चास्तीति उक्तं वर्तते। राष्ट्रपतिना भण्डारिणा सन्देशे उक्तं प्रजातन्त्रस्यैव आधारशिलायं लोकतन्त्रेण राष्ट्रे इदानीं संघीय लोकतान्त्रिक गणतन्त्रात्मक शासन व्यवस्था स्थापिता वर्तते। राष्ट्रपतिना भण्डारिणा सन्देशे संविधानेन अवलम्बितां प्रणालीम् इतोऽपि सुदृढीकृत्य सामाजिक न्यायेन सहितायाः आर्थिक समृद्धेः प्राप्तेः दिशि अग्रेसरता प्रदर्शनम् अस्माकं सर्वेषां संयुक्त दायित्वमस्तीति उक्तमस्ति। उपराष्ट्रपतिना नन्दबहादुर पुनित्यनेन प्रदत्ते सन्देशे जनतया ऐतिहासिक जनान्दोलनस्य माध्यमेन निरंकुशम राणा शासनम् निपात्य स्थापित प्रजातन्त्र अद्यतन दिवस अस्माकं नेपालीनां गौरवपूर्ण अविस्मरणीयश्च अस्तीति निगदितं वर्तते। उपलक्ष्यस्मिन् सभामुखेन अग्निप्रसाद सापकोटाविदेन प्रदत्ते सन्देशे लोकतन्त्रस्य सुव्यवस्थितस्य संस्थागतस्य च अभ्यासस्य विषये गभीरेण समीक्षायाः अवस्था श्रेष्ठा स्थिति उल्लिखितोऽस्ति। उल्लेखितम् वर्तते। एवमेव राष्ट्रिय सभाया अध्यक्षेण गणेश प्रसाद तिमल सिन्हा विदेन च शुभकामना सन्देश प्रदत्त वर्तते। राष्ट्रपतिना विद्यादेवी भण्डारिणा राष्ट्रिय प्रजातन्त्र दिवसस्य अवसरे विभिन्नानां कारावासीय बन्दीजनानां दण्डनम् क्षमितम् अस्ति। मन्त्रिपरिषदः परामर्शे अनया कारावासीय बन्दीजनानाम् अवशिष्ट कारावास दण्डनम् निरस्य क्षमा दत्ता वर्तते। राष्ट्रपतेः कार्यालयस्य राष्ट्रपतिः कार्यालयस्य सहायक प्रवक्तः केशव प्रसाद घिमिरेविदस्य अनुसारेण ख्याङ लिम्बु इत्यनेन सहितानाम् एकोत्तर चतुःशतस्य बन्दीजनानाम् अवशिष्ट कारावासनम् निरस्य क्षमादानम् विहितमस्ति। राष्ट्रपतिः विद्यादेवी भण्डारी भासते बलात्कार महिला हिंसायाः घटनाश्च रोद्धुम् अतिरिक्त जनजागरणस्य आवश्यकता वर्तते। महिलाधिकाराणां क्षेत्रेषु कार्यरतानां संघ संस्था प्रवृत्तिनां विविध सम्बद्ध निकायानां प्रमुखैः प्रतिनिधिभिश्च सह ह्य शीतल निवासवर्तिनी राष्ट्रपति कार्यालये सम्पन्ने विमर्शन कार्यक्रमे राष्ट्रपतिः भण्डारी बलात्कारस्य महिला हिंसायाः घटनानां च न्यूनीकरणाय सर्वेषां मानसिकतायाम् अनुकूल परिवर्तनस्य आनयनम् आवश्यकम् अस्तीति अवोचत। राष्ट्रपतिः भण्डारी महिला हिंसाया घटना आमूलम् उच्छेदनीया इति चर्चयन्ति एतदर्थं सर्वकारेण तत्कालं चालनीयस्य कार्यस्य विषये सम्बद्ध पक्षेण प्रदातव्यानाम् उपयुक्त परामर्शानां क्रियान्वयनाय आत्मनः संलग्नता भविष्यतीति अभासत। कार्यक्रमे महिला बाल बालिका समाज कल्याण मन्त्री जुली कुमारी महतो अगदत् बलात्कारस्य महिला हिंसाया घटनानां च न्यूनीकरणाय स्तरत्रयस्यैव सर्वकारैः मिलित्वा कार्यं क्रियते। प्रधानमन्त्रिणा केपी शर्मा ओलिना आत्मना स्वस्य नेतृत्वस्य सर्वकारेण च न्यायालयस्य उच्च सम्मान विद्यमानोऽस्तीति उक्तं वर्तते। आत्मन विरूद्धे अपहेलनस्य विषये सर्वोच्च न्यायालये स्वयम् उपस्थाय लिखितोत्तरं प्रस्तुवता प्रधानमन्त्रिणा ओलिना स्वतन्त्र न्यायपालिकायाः सम्मानस्य न्यूनीकरणस्य किमपि कार्यं न विहितमिति स्पष्टीकृतं वर्तते। प्रधानमन्त्रिणा स्वस्य लिखितोत्तरे न्यायपालिकायाः स्वतन्त्रता विदेह शासनस्य लोकतन्त्रस्य च प्रमुख आधार स्तम्भोऽस्तीति उल्लिखता स्वस्य नेतृत्वस्य सर्वकारेण न्यायालयस्य निर्णयस्य आदेशस्य च सदैव सम्मान क्रियान्वयनञ्च विधीयमाने स्तः इति उल्लिखितमस्ति। प्रधानमन्त्री केपी शर्मा ओली गदति स्वसशस्त्र द्वन्द्व पीडितानां समस्याया सम्बोधनाय विशेष कार्यदलं निर्मास्यते। प्रधानमन्त्री निवासे बालवाटार स्थाने इहो द्वन्द्वस्य समये मारितानां सुरक्षाकर्मिणां परिवारैः आहतैः सुरक्षाकर्मिभिश्च सह वित्ते विमर्शने प्रधानमन्त्री ओली कार्यदलं निर्माय द्वन्द्व पीडितानां समस्या समाधास्यते इत्यवोचत्। प्रधानमन्त्री ओली क्षमया पीडितेभ्यः आवश्यकताया अनुरूपस्य सहयोगस्य माध्यमेन च द्वन्द्वस्य समस्या क्रमशः समाधातव्येति बलं प्रादात्। सर्वकारेण द्रुत प्रक्रियातः कोरोना संक्रमण विरूद्धस्य लक्षणां विंशतिः टीकाकरणानि क्रेतुं निर्णीतं वर्तते। मन्त्रिपरिषदः निर्णयानि सार्वजनिकर्तुं ह्यः सिंहप्रासादे आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री पारद गुरूङ उत्पादक संस्थानस्य शपथस्य अनुसारेण वित्तं प्रदाय प्रत्यक्षं टीकाकरणानि क्रेतुं निर्णीतमिति अज्ञापयत्। मन्त्री गुरूङ आपूर्तिं प्रयोगञ्च सहजीकर्तुं भारत सर्वकारेण अनुदाने प्रदत्तं सम्प्रति प्रयुज्यमानमेव टीकाकरणं क्रेतुं निर्णीतमिति अबोधयत्। स्वास्थ्य जनसंख्या मन्त्रालयेन चिकित्सकानां परामर्श शुल्कं न वर्धयितुं निर्दिष्टं वर्तते। मन्त्रालयस्य प्रवक्त्रा डाक्टर जागेश्वर गौतमेन ह्यः प्रकाशितायां विज्ञप्तौ परामर्शं गृहकार्यं च विधायैव चिकित्सकानां परामर्श शुल्कं निश्चेतुं नेपाल चिकित्सक संघः एसोसिएशन अफ प्राइवेट हेल्थ इन्स्टिच्युसन नेपाल संस्था च निर्दिष्टे स्तः। मन्त्रालयस्य सहमतिं विना वर्धितं परामर्श शुल्कं अमान्यं भविष्यतीति विज्ञप्तौ ज्ञापितं वर्तते। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा वदति सर्वोच्च न्यायालयस्य निर्णयो दलाय मान्यो भवति। नेपाल राष्ट्रिय मगर संघस्य गण्डकी प्रदेशस्तरीय सम्मेलनम् राष्ट्रिय मगर विद्यार्थी संघस्य प्रदेश समितेः घोषणा कार्यक्रमं च पूर्वेद्यु पोखरामि उद्घाटयन् सभापति देउवा एवम् अवोचत्।